मङ्गलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधं त्रिजन्म पाप संहारं एक बिल्वं शिवार्पणं त्रिशाखैर्बिल्वपत्रैश्च रुचित्रै कोमलै शुभै शिवपूजां करिष्यामि एक बिल्वं शिवार्पणम् नन्दिकेश्वरे शुद्ध्यन्ति सर्वपापेभ्यो एक बिल्वं शिवार्पणम् शालिग्राम शिलामेकं विप्राणां जातु अर्पयेत् सोमयज्ञमापुण्यम् एक बिल्वं शिवार्पणम् सहस्राणि वाजपेय शतानि च कोटिकन्नामादानम् एक बिल्वं शिवार्पणम् लक्ष्म्यास्तनत उत्पन्नं महादेवस्य च प्रियं बिल्ववृक्षं प्रयच्छामि एक बिल्वं शिवार्पणम् दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् अघोरपापसंहारम् एक बिल्वं शिवार्पणम् मूलतो ब्रह्मरूपाय मात्यतो विष्णुरूपिणे अग्रतः शिवरूपाय एक बिल्वं शिवार्पणम् एक बिल्वं शिवार्पणम् एक बिल्वं शिवार्पणम् बिल्वाष्टकमिदं पुण्यम् यः पटे शिवसन्निधो सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात्।